नमस्ते। वाक्यकारं व्रजं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हल्सन्धीनाम् अध्ययनं क्रियमाणमस्ति। पूर्वसवर्णसन्धेः अध्ययनम् अवशिष्टम्, ओन्लि लास्ट् सूत्र इस् रिमैनिङ्ग्, पूर्वसवर्ण। अन्येषां सूत्राणाम् अध्ययनम् अस्माभिः कृतम्। पूर्वसवर्णस्य विषये जानीमः। सूत्रमस्ति झयः हः अन्यतरस्यां, झयोः अन्यतरस्यां सूत्रम्। पूर्वस्य सवर्णः इति सूत्रे नास्ति अनुवृत्तम्। झयः इति पञ्चमी विभक्तिः, झयः इति पञ्चमी, हः इति षष्ठी, ह इति शब्दः, हः इति षष्ठी। एवञ्च झयः परस्य हस्य इत्यर्थः, झयः परस्य, झयः इति पञ्चमी अतः परस्य इत्यर्थः, झयः परस्य हस्य। पूर्वसवर्णः भवति अन्यतरस्याम्, अन्यतरस्याम् इत्यस्य वा इत्यस्य च अर्थः समानः, विकल्पेन इत्यर्थः, ऑप्शनल्, विकल्पेन इत्यर्थः। जयः हः वा अथवा जयः अन्यतरस्यां, कदाचित् वा इति पदं भवति, कदाचित् अन्यतरस्याम् इति पदं भवति, अर्थः समानः। अतः जयः परस्य हस्य हकारस्य पूर्वसवर्णः भवति अन्यतरस्यां, विकल्पेन इत्यर्थः। पूर्वसवर्णः इत्यनेन पूर्वः यः वर्णः तत् सवर्णः भवेत्। सवर्णः इति व्याकरणशास्त्रे काचित् संज्ञा, समानस्थानम्, उच्चारणस्थानं भवेत्, पुनः समानः प्रयत्नः भवेत् इति उच्यते। अत्र उदाहरणार्थम् इदानीं पूर्ववर्णः ककारश्चेत् ककारात् परं यदि हकारः अस्ति तर्हि ककारस्य सवर्णः एव हकारस्य स्थाने भवति। हकारस्य सवर्णाः के इति चेत् कवर्गे विद्यमानाः वर्णाः क ख ग घ न, एते सर्वेपि ककारस्य सवर्णाः, अतः तेषु कश्चन हकारस्य स्थाने भवेत्। कः भवति इति चेत् सर्वेषु वर्गेषु चतुर्थः वर्णः एव हकारस्य स्थाने भवति। किमर्थम्? हकारस्य एतेषां वर्णानां च साम्यमस्ति उच्चारणदृष्ट्या। अत्र प्रयत्नाः सन्ति, आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः इति, तत्सादृश्यं हकारस्य पुनः वर्गचतुर्थवर्णानां च अस्ति। अतः सो दीस् लेटर्स् घ छ ठ थ भ चतुर्थवर्णाः एते हकारस्य स्थाने भवन्ति। उदाहरणं दर्शयामि, जगद् हितम्, अत्र दकारः अस्ति अतः सवर्गस्य चतुर्थः वर्णः धकारः, सः हकारस्य स्थाने भवति। जगद् हितम्, जगद्धितं हकारस्य स्थाने धकारः, जगद्धितम्। अन्यतरस्याम् इत्युक्तं विकल्पेन पूर्वसवर्णः, अतः धकारस्य अभावे जगद्धितम् इत्येव, विकल्पेन हकारस्य स्थाने धकारः। अत्र वस्तुतः जगत् इति शब्दः तकारान्तः शब्दः प्रथमं जस्त्वं भवति यतः जगत् इति पूर्वम् आसीत् तकारः आसीत् जस्त्वं नाम झलां जशोन्ते इति सूत्रं पूर्वम् अस्माभिः पठितम् जस्त्व विधायकं सूत्रं पूर्वसवर्णापेक्षया पूर्वमस्ति अष्टाध्याय्याम् अतः प्रथमं जस्त्वं फस्ट् हव् टु अप्लै जस्त्व देन् इट् बिकम्स् जगत् बिकास् आल् दिस् सूत्रास् आर् इन् त्रिपादि सो वि हव् टु अप्लै दिस् सूत्रास् इन् अष्टाध्यायी आर्डर् फस्ट् जगत् इति शब्दः देन् जस्त्व इट् बिकम्स् जगत् देन् पूर्वसवर्ण इस् अप्लिकेबल् हकारस्य स्थाने झकारः जगद्धितम् जगत् तकारस्य लकारः जस्त्व वि स्टडीड् द जस्त्व प्रीवियस्लि झलां जशोन्ते जस्त्व सन्धि वि स्टडीड् दिस् सो जस्त्वम् इस् अप्लिकेबल् बिकास् झलां जशोन्ते इस् इन् प्रीवियस् रूल् Here we can see the rules. Chalam Jashonte iti sutram. Jashtvam. Chalam Jashonte 8239. Chayo Hona Tarasyam 8462. Ataha, first Jashtvam Bhavadeva. First you have to apply Jashtvam. Then only you can apply Pura Savarna. अतः किं भवति जगत् बिकम्स् जगद् बै जस्वरु जगत् देन् बिकम्स् जगद् ततः परं जयोः नकरस्यामपि सूत्रेण जकारः जगद्धितम् अन्यः शब्दः षड् हरिणाः षड्ढरिणाः अत्र डकारः अस्ति डकारः टवर्गे अन्तर्भवति तस्मात् टवर्गस्य चतुर्थः वर्णः सः ढकारः सः हकारस्य स्थाने भवति अतः षड्ढरिणा इति रूपम् विकल्पेन इति कारणात् षड्हरिणाः इत्यपि रूपं सिद्ध्यति अत्रापि वस्तुतः अयं पूर्वं शश इति आसीत् शश् इति शब्दः ततः परं जस्त्वं फस्ट् जस्त्व वास् अप्लैड् देन् शश् विकेम् षड् ततः परं जयोः नतरस्याम् इत्यनेन कारस्य स्थाने ढकारः षड्ढरिणाः इति रूपं सिद्ध्यति अतः अष्टाध्यायीसूत्रक्रमेण एव सूत्राणां प्रवृत्तिः भवति अन्यानि कानिचन उदाहरणानि पश्यामः लेट् अस् सी सम् मोर् एक्साम्पल्स् वाग्हीनः किं भवति रूपम् अत्र गकारः अस्ति उत्तमं वेङ्कटेश्वरजी कल्याणकृष्णजी उत्तमम् सम्यक् प्रसाद्जी ज्ञानेश्वरजी अत्र गकारः अस्ति गकारः कवर्गे अन्तर्भवति तस्मात् कवर्गस्य चतुर्थः वर्णः इति घकारः विकल्पेन आप्षनलि विकल्पेन भवति किञ्च वाघीनः अथवा वाग्हीनः किन्तु वस्तुतः ओरिजिनलि इट् वास् वाच् थकारान्तशब्द then it was watch. Then, as I mentioned, we have to apply these rules to following the astrachaya order. Ataha, if we pashyamah tetra, chokuhu iti sutram asti, chokuhu is 8 to 30, rasparam 8 to 30 then jalam jishwante. So, chokuhu is also applicable in this example. अतः सो प्रथमं वाच इति आसीत् देन बै चोह कुहु दिस इज चो तवर्ग अस्ति तवर्गस्य स्थाने कवर्गः सो बै दिस रूल चोह कुहु वाच बिकम्स वाक देन जस्तु थलां दिशां दे एप्लीकेबल So, vāk becomes vāg. Now, pura savarana is applicable. So, vāghinaha. So, there are two other rules we applied before applying this pura savarana rule. Because, as I mentioned, we have to follow the astrachaya order while doing this halsandhi, while applying halsandhi rules. अत्र प्रश्नः अस्ति सूत्रे फोर्थ लेटर इति नास्ति किल कथं जानीमः चतुर्थः वर्णः इति सूत्रे नास्ति किन्तु सर्वदापि सदृशतमः आदेशः भवति सदृशतम सो विच इस् द बहु क्लोजेस्ट् लेटर सदृशतमः आदेशः भवति हकारस्य स्थाने सदृशतमः आदेशः कः इति चेत् घकारः एव चतुर्थः वर्णः एव सदृशतमः यतः तत्र उदाहरणार्थं हकारः महाप्राणः हकारः महाप्राणः लेटर् सो ककारः महाप्राणः नास्ति केवलं ख अथवा घ द्वौ एव महाप्राणौ इफ् यु टेक् ख ga kha and na atra kah varna bhavet iti prashna so which letter replaces this hakara see this hakara is mahaprana kakara mahaprana nasti gakara mahaprana na nakara mahaprana na so kakara na bhavati ककारः न भवति गकारः न भवति ङकारः न भवति सो ओन्लि टु लेटर्स् आर् रिमैनिङ्ग् अमङ्ग् दीस् टु आल्सो द प्लेस् आफ् प्रोनौन्सियेशन् नाम अत्र प्रयत्नाः सन्ति नट् ओन्लि दि स्थान इस् सेम् फार् आल् दिस् बट् देर् आर् सम् प्रयत्न आभ्यन्तर अण्ड् बाह्य प्रयत्न सो देट् इस् हका द प्रयत्न हकार अण्ड् प्रयत्नास् घकार इस् सेम् and prayatna of hakara and khakara is different so bahya prayatna so there are some bahya prayatnas we have not didn't discuss that previously so there are bahya prayatnas and the bahya prayatna hakara and khakara is not same but bahya prayatna hakara and khakara is same therefore gha replaces hakara अतः देयरफॉर ऑलवेज द फोर्थ लेटर ऑफ ईच वर्ग रिप्लेसेस हकार प्रश्नः वेंकटेश्वरन जी प्रश्नः अस्ति वा म्यूटिंग
ಅಲ್ಪಪ್ರಾಣ ಐತಂದ್ರೆ ವೈ ಯು ಆರ್ ರೆಫರಿಂಗ್ ಟು ಮಹಾಪ್ರಾಣ
ಇಟ್ಸ್ ನಾಟ್ ಅಲ್ಪಪ್ರಾಣ ಆಲ್ವೇಸ್ ಮಹಾಪ್ರಾಣ
ಹಾ యరలవః, ఆర్ దే నాట్ అల్ప ప్రాణ?
The
comment is, the ha is pronounced from kantam. And the letter which is replacing the fourth letter, which is replacing the, it depends on the previous words, the last letter, ga. Ga is kanta. So you are replacing by fourth letter, ga. So that way, the pronunciation matching is there, and that is why ha gets replaced by this chaturtha letter.
Pronunciation matching is there with all these four letters, because Kavarga, the sthana of Kavarga is Kantha. And sthana of Hakara is also Kantha.
Yeah.
So, the place of pronunciation is same for all these letters. Ka, ka, ga, ga, nga.
Yes.
So, any letter can be replaced if you take only the Kantha sthana. Therefore, we have to consider these other prayatnas. They are called Abhyantara prayatnas. And regarding that, if in Siddhanta Kaumudi, in Samjna Prakarana, so you will find that detailed discussion regarding Abhyantara Prayatna. There are 11 Ekadasha Abhyantara Prayatnas. Vivara, Samvara, Swasa, Nada, etc. So, the Abhyantara Prayatna of Hakara and Ghakara is same. And Abhyantara Prayatna of Hakara and Khakara is not same. And as I mentioned, this is among this Abhyantara Prayatna, one of the Abhyantara Prayatna is Mahaprana.
Okay.
And Hakara is Mahaprana.
I see. Okay. Thank you.
So, you can read. There are I'm reading from Siddhanta Kaumudi. Varganam Prathama Tritiya Panchamaha, the first, third and fifth letter of each Varga. Then Yaralavasta, Yaralava, these four letters are Alpa Pranaha. Anne Mahapranaha Chatsaha, other letters are Mahapranaha. It means the second and fourth letter of Varga and Sha, Sha, Sa, Ha. These four letters are considered Mahaprana. So therefore Hakara is Mahaprana.
Okay.
And these are discussed in Shiksha, and they in the Siddhanta Kaumudi they mentioned for this, only for this purpose. So to find out which is Sudarsha Tama. Asto. Okay. Asto. Anyat udaharanam. Shad harmyani. अत्र किं भवति इदं सदाशिवजी यस् इन्दिराजी सम्यक् यस् इन्दिराजी अत्र डकार डकार इस् इन् ट वर्ग अतः हकारस्य स्थाने अपि यस् कल्याणकृष्णजी उत्तमं. सो हकारस्य स्थाने महाप्राण ढकार षड्धर्म्याणि षड्धर्म्याणि विकल्पेन अतः ढकारस्य अभावे षड्धर्म्याणि. अब ह्रासः अत्र किं भवति उत्तमं रामायणं जीत्य भारतब्रह्मण्यं जी उत्तमं सा जीत्य जनयति उत्तमम्. अत्र बकारः अस्ति, बकारः पवर्गे, इट् इस् इन् पवर्ग, फोर् द फोर्थ् लेटर् आफ् पवर्ग इस् भकार. भकारः हकारस्य स्थाने भवति, अतः अभ्रासः अब् सो महाप्राणभकारः हकारस्य स्थाने भवति अभ्रासः. अत्रापि वर्जिनल् इट् वास् अप् शब्द, देन् धरां दृशोन्ते इस् अप्लिकेबल्, सो ब रिप्लेसस् प, वर्जिनल् इट् वास् प, देन् इट् बिकेम् ब, देन् रिस्पुरसवर्ण इस् अप्लिकेबल्, सो अभ्रास इस् द आर्डर्. वेङ्कटेशन्जि प्रश्नः वर्तते किम्? जस्ट् अ मिनिट्. जना अय्यर् ड्यूटि क्वश्चन् इट् अन्यतरस्यां वा समानौ एव किल? यस् भवतः से अन्यतरस्यां वा अनयोः समानः अर्थः. ओके, इट् वुड् बि हेविङ्ग् गुड् टु शो द आन्सर् टैप् आन् द स्क्रीन्. ओके, दे आर् नाट् एडेड् आन्सर्स्. ओके, सो ऐ कान्ट् अन्म्यूट्, ऐ डोण्ट् नो. सो यस् जनायति.
नमस्कारः.
अहं
इति पदस्य अर्थः किम्?
षड्धर्म्याणि इत्यस्य हर्म्यं नाम गृहम् अथवा कुटीरं सर्वं हर्म्यम् इति कथ्यते. षट् हर्म्याणि
तत् हर्म्याणि भवनं वा?
हा सत्यं, भवनं धन्यवादः. ह्रासः नाम न्यूनीभावः, बिकमिङ्ग् लेस् इट् इस् ह्रास. सो अप् इस् वाटर् जल, अभ्रासः. प्राग् हसित्वा किं भवति अत्र? प्राक्तम् इन्द्राजि, यस्, वासियं जि उत्तमं, वेङ्कटेश्वरं जि, यस्, बालसुब्रह्मण्यं जि उत्तमं. सो अत्र या सो गकारः अस्ति, गकार इस् इन् कवर्ग फोर् घ महाप्राणघकार रिप्लेस् सकार आप्षनलि प्राघसित्वा. जगत् हितम् उत्तमं सञ्जी, यस् रामरायणजी उत्तमम्. अत्र दकारः अस्ति, दकार इति सवर्ग फोर् ध महाप्राणधकारः हकारस्य स्थाने भवति, जगद्धितम्. देन् तद् हि समानमस्ति, सो देस् दकार बिफोर् एस् रीड् इन् द प्रीवियस् एक्साम्पल् द धकार रिप्लेसेस् हकार तद्धि. देन् तद् हेतुकम् अगेन् सेम् सिमिलर् एक्साम्पल्. सो दकारः अस्ति बिफोर् महाप्राणधकार रिप्लेसेस् हकार तद्धेतुकं, तद् हितं. So there is the kara again. Yeah. So therefore, yes, Uttam. Yeah. Bhakti Purunji Pasadji, yes, Uttam. So it becomes Tadjita. Tadjitam. Here is Tadjita Pratyaya. So there also this Pura Savara Santhi is there. Mahad Hasyam. So again, the similar example, the Dakara, Ataha, yes, Bhakti Purunji, Ramadhananji, Uttam. So, Dakara Bhavati, Mahadhasyam. Samrat Haridram. Yeah. Atra Kim Bhavati, there is a Dakara, so it is in the Tavarga, Ataha, yeah, Bhakti Purunji, Uttam. Yes, so hakarasya sthane mahaparana dhakara dhakara bhavati samradharidram it is optional pakshe samradharidram bhavad hitarakshakah So, similar example as we did previously, dhakara asti, therefore dhakara replaces dhakara, bhavadhita rakshakaha. Suhrid hrishtaha, suhrid is mitra, friend, suhrid hrishtaha. Yes. Atrapi, again is similar. Yeah. Hakara, yes, Ramayana Jyotam, Bhagavanindi, Yaklasyam Jyotam, suhrid hrishtaha. Dhakara replaces Dhakara. Bhrajad Hiranyam. Yeah. Again, it is same. So, Bharatapuran Yutam. So, Bhrajad Hiranyam. Vid Hasati. Again, it has Dhakara for the fourth letter of Savarga. Yes, Bharatapuran Ji. Yeah. Sajyatam, Vidhasanji. So, Dhakara Hakara Sastane Bhavati. So, Vidhasati. Patad Himam. This is, so, yeah, Dhakara Hasti. Yes, Bhakti Pranji, Vidhasanji. So, Dhakara Hakara Sastane Bhavati. Like, Udhataha, same. So, Udhataha. Okay, yeah. Samaptam. So, evam, so we studied all these sutras now, the Halsandhi, some of the famous sutras of Halsandhi. So, Tukagama, Cheta, Padantatva, Venkutva, Chokuhu, Shatva, Shashamshaha is a part of sutra, not a complete sutra, Shashamshaha. There is a long sutra and I only took the part. Then Adesha Pratyayoho, Jastva, Chalam, Dushante, Katva, Shadok, Kasi, Monuswaraha, Astra, Padantajali, Namoharaswa, Chingamunityam, Then stutva, stostu nastuhu, prunastuhu, eronunasike, anunasikova, kharita, vavasane, anuswarastiyayi, parasavaranaha, vapadantasya, tohuli, torli, jayaha, and adarasya. We studied all these sutras. And as I mentioned, since all these sutras, most of these sutras, in the first two sutras are not in the Pali, Eta and Padantatva, first two rules, they are not in, they are in sixth achaya. Not in Tripadi. Tripadi means Dvitiya, Tritiya, Chaturtha Pada of Ashtamadhyaya. So these two are not Tripadi Sutras. Anya Sarvepi Tripadhyam Sandhi. Therefore, we have to follow the Ashtadhyay order while applying these sutras. Just I'm showing some examples how these, since we have to apply all these sutras following the Ashtadhyayi order, I'm showing some examples where we are applying more than one Santhi rule. Kutva and Sattva. Prashna asti, Suhrid Hrishtaha, Suhrid Hrishtaha Bhavati. Parantu suhrid drishtaha api suhrid drishtaha iti bhavati va. Yes. समानं भवति किन्तु तत्र अर्थस्य कथं निर्णयः चेत् प्रसङ्गं दृष्ट्वा प्रसङ्ग प्रकरणात् अर्थः जातव्यः सुहृद् दृष्ट वर्णिष्ठकार देन् सीङ्ग् द काण्टेक्स्ट् यु हेव् टु डिसैड् द मीनिङ्ग् अस्तु सो त्यज तुं सो बिकम् फस्ट् सिन्स् एस् ऐ मेन्शन् कुत्व इस् इफ् यु कम्पेर् वित् त्यक्त्व देन् कुत्व रूल् दट् इस् चोहकुः पूर्वमस्ति बिफोर् फस्ट् कुत्व त्यज बिकम् त्यज देन् इस् कुत्व देन् त्यक्त्व त्यक्त्व गकार यस् ककार सो त्यक्तुं त्यजतुं त्यजतुं त्यक्तुम् कुत्वं षत्वं पचस्यति भुषत्कानुरूपं फ्यूचर् टेन्स् पच प्लस्यति देन् चकारस्य स्थाने ककार दट् इस् कुत्व च गस् च इस् रिप्लेस् वित् क पक् प्लस्यति देन् सकारस्य स्थाने षकार स इस् रिप्लेस् वित् ष सो पक् ष्यति देन् पक्ष्यति कुत्व षत्व चत्व युजुज् सति युज् युजु धातु एण्ड् युयुज् प्लस् स्यति देन् ज गेट्स् ग दट् इस् कुत्व युयुग् सति देन् स चेन् स रिप्लेस् वित् स य दट् इस् षत्व युयुग् ष्यति then tatva ga gets ka yuk yukshati yukshati so first kutva then shatva then tatva yeah so yeah so kutva is 8 to 30 and chatva 8 4 55 as Sebastian mentioned yes yes so we have to follow that order yeah. then chatva stutva drashta first chatva is applicable the chatva shakarasya sthane shakarah bhavati drash then stutva सो तकारस्य स्थाने तकार द्रष्टा एवं देन् जस्त्व प्रस्तुत्व उत जीवनं तकारस्य स्थाने दकार दट् इस् जस्त्व देन् स्तुत्वसन्धि दकारस्य स्थाने जकारः भवति तर्हि स्तुत्व सो उज्जीवनम् देन् स्तुत्वा प्रस्तर्तत्व तद् चयनम् दकारस्य स्थाने जकार स्तुत्व देन् चत्व जकारस्य स्थाने चकार द फस्ट् लेटर् आफ् ईच् वर्ग दट् इस् चत्व जकारस्य स्थाने चकार भवति तच्चयनम् जस्त्व स्तुत्व फार् एक्साम्पल् प्रतिपत् चन्द्रः तकारः अस्ति फस्ट् जस्त्व इस् अप्लिकेबल् तकारस्य स्थाने दकारः सो इट् बिकेम् प्रतिपद् चन्द्रः देन् स्तुत्व दकारस्य स्थाने जकार सो प्रतिपज् चन्द्र देन् जकारस्य स्थाने चकार इति चत्व प्रतिपत् चन्द्रः इट् बिकेम् प्रतिपत् चन्द्रः त्री जस्त्व स्तुत्व अण्ड् तत्त्व आर् अप्लिकेबल् जस्त्व अण्ड् स्तुत्व तस्मात् डमरुः सो फस्ट् प्रथमं तकारस्य स्थाने दकारः जस्त्व देन् दकारस्य अष्टुत्वं तस्मात् डमरुः श्रुत्वम् एण्ड् कर्त्वम् तद् टीका फस्ट् श्रुत्वा डकारस्य स्थाने डकार देन् चत्वा डकारस्य स्थाने टकारः तत् टीका जस्त्वा श्रुत्वा चत्वा स्यात् टवर्गः तकार बिफोर् फस्ट् इट् गेट्स् जस्त्वा देन् डकारस्य स्थाने डकार बिकास् इट्स् फालोड् बै टकार अतः इट् इस् श्रुत्वा देन् ड इस् रिप्लेस् वित् ट इट् इस् चत्वा चाटवर्गः पूर्वसवर्ण विच् वि डिड् तस्मात् हि तकार देन् दकार तस्मात् हि देन् तस्मात् हि विच् वि डिड् रीसेण्ट्लि देन् अनुस्वार परसवर्ण शान्तः फस्ट् अनुस्वारसन्धि अप्लिकेबल् सो मकारस्य स्थाने अनुस्वारः भवति देन् परसवर्ण अनुस्वारस्य स्थाने नकारः शान्तः सो या दिस् इस् द इफेक्ट् आफ् उपाधि since all these rules are in Tripadi, we have to follow Ashtadhyay order, then only we can get all these forms. So, yeah. Okay. Idanim, so, Harsandhinam Shay, Maya Vaktoyam Uktam, Yadi Bhavatam Hasse, Ashtadhyay Pushpagam Asti, अहं किञ्चित् त्रिपादीं त्रिपाद्यां किम् अस्ति इति वक्तुमिच्छामि इफ् यु हेव् अष्टाध्यायी बुक् इन् युवर् हेण्ड् दिस् ओपन् दट् ऐ केन् शो वाट् इस् देर् इन् त्रिपादी ऐ केन् एक्स्प्लेन् जस्ट् ऐ केन् गिव् अन् ओवर् व्यू आफ् त्रिपादी रूल्स् केन् रीड् लेटर् आन् सो त्रिपादि मीन्स् सेकेण्ड् थर्ड् अण्ड् फोर्थ् पादाः अष्टमाध्याय अष्टमाध्यायस्य द्वितीय तृतीयचतुर्थपादाः त्रिपादि एण्ड् द फस्ट् रूल् आफ् द्वितीय पाद इन् अष्टमाध्याय इस् पूर्वत्र सिद्धम् सो द मीनिङ्ग् आफ् दिस् सूत्र ऐ डिस्कस् इन् how to understand Ashtadhyaya Avagamana Vishaya Aham Uktavan so Tatra I mentioned this Asiddha Vastha Asiddha is the Sapana Saptadhyayi and there are two sections Sapana Sapta seven Adhyaya and plus Ashtama Adhyayasya Prathamaha Padaha 8-1 it is sapada sapta adhyaya and there is another section it is the three padas second third and fourth pada 2 3 and 4 of ashtama adhyaya is called tripadi so after applying this tripadi rules we should not apply sapada sapta adhyaya rules this we can't apply it is asiddha and even in tripadi as I mentioned the first rule applicable first so we can't apply the last rule in the beginning if any other rule which is previous to that if it is applicable then we have to apply that rule first so tripadya nyana sutrani santi tesham kramena eva pravartite bhavati tatha तथा च सपादसप् अष्ट त्रिपाद्याः त्रिपाद्यां विद्यमानस्य सूत्रस्य प्रवृत्त्यनन्तरं सपासप्ताध्यायां विद्यमानं सूत्रं न प्रवर्तते तदेव पुरत्र सिद्धम् इत्यस्य अर्थः पुरत्र सिद्धम् अण्ड् देर् आर् सम् एक्सेप्शन् दोस् आर् डिस्कस्ड् इन् 8-2-2 नरोपः सुप्सः संज्ञातुकृति and among these are the exceptions to Puratra Siddha then there are some three rules about Swara then there is the 7 and 8 that is about Nalopa which we study in Subanta chapter that is related with Subanta Nalopa Pradipadikaradasya Nagi Sampujyoho Then there are few roots from 9, 10, 11, 12, 13, 14, 15. They are related to Tadjita Pratyaya. This is the Pratyaya Matu. We know this is the, like Gunavan, Rupavan. This is Matu Pratyaya. And these two are related with Matu Pratyaya. From 9, Mabipataya, Samatorvoyava, there are some roots which we study in the chapter. Then there is some other roots which we are not discussing, 16, 17, 18, 19, 20, etc. Then there is Sanyogantasya Lopaha, which we discussed in Subanta. Again, there are these traps, there are some more roots which are related with Tinganta. From 24 to 29. Ratsasya, Tita, Sarosari, Svadanga, Tita, Iti, Skot, Niyoga, Dioram, Teta. These are related with Tinganta. So, we study in Tinganta. Then, the 30. Trimshatamam Sutra Masti. 8 to 30. There is Tofu, which we study. Then, Hotaha, Dater, Tatur, Kaha, Vagraha, Mahasma, Hasmiha, Nahotaha, Ahastaha. These five roots, they are though they are Sandhi roots, I didn't discuss those roots. In Siddhanta Kumati, we will find these roots in Haranta, Pullinga chapter. Then, and, 36, there is Vrashta, Prashta, Prita, Vrita, Ajarada, Prada, Sashamsaha, which we discuss as Shatva in this Sandhi. I mentioned only Sashamsaha. So, as a Shatva rule. Okay, Vegena Vadati. Okay, Shamadam. Yeah, good. Okay. So, yeah. So, I'm just I'm giving a glance, an overview of this section. Purvatra system, I think you understood. Then there are. See, once again I will explain. First there is Puratra Siddha, there is 8, 2, 1. Then there are two rules, 2, 8, 2, yeah. 8, 2, 1, then 8, 2, 2, 8, 2, 3. Those are exceptions of 8, 2, 1. Apavada Hasti. Tadvise Maya Tata Nakriyate, but those two are exceptions. Then 8, 2, 4, 8, 2, 5, 8, 2, 6. This is about swara. So, since it is intonation, Vedika swara, so we are not discussing. Then, 8 to 7 and 8 to 8. These two sutras we are discussing in Subanta section. Okay. Then, 8 to 9. From 8 to 9, 8 to 15. This is about, this is so, we are discussing in the Tadjita section. So, we are not discussing that here. Samyak na shruyate. The others are muted. So, is there a disturbance? Okay, there are some disturbances. Okay. Yeah. Now, yeah. Then after that is 8.1.16 onwards, there are some rules which we are not discussing here. Then 8.2.24 to 8.2.29. They are related to Tinganta section, which we are not discussing here. We will sum up those rules we study in Tinganta. And 8 to 30, Stohokuhu, which we studied in this Haranta section. Then 8 to 31, to 8 to 35, it is Hotaha, Dadir, Thaturkaha, etc. So, they are also Halsanthi roots, but I didn't teach that, So if you are interested, you can read those sutras. In Siddhanta Kaumudi, you will find these sutras in Halanta Pullinga Prakarana. The Halanta Pullinga Prakarana begins with Hodha itself in Siddhanta Kaumudi. Okay? Then 8 to 36, that is Vrasta, Brasta, Krita, Mrida, Eda, Raja, Praja, Chasham, Saha. And partially we studied, I mentioned only the Chasham, Saha in the Salsandhi section as Shatruva. Okay? Then there are some, then 8 to 37, 8 to 38, then we will study in Siddhanta. Then 8 to 39, Jalam Jashonte, which we studied as just was here, 8 to 39. Then 8 to 40, 8 to 41, we will discuss in, maybe we will discuss in Siddhanta. Then from 8 to 42 onwards, up 8 to 61 paryantam, 8 to 42 saha arabhya, 8 to 61, all these rules are related with kritpatya. There is a kritpatya called kta, which we will study in Kadanta section. There is a pratya called kta. All these rules are related with that pratyaya. There are two pratyayas actually, ta and tavatu, both begin with tavatu. And all these rules are related with these two tavatu, related with ta and tavatu pratyayas. So we will study these in Kridanta section. Then 8 to 62 and 8 to 63, that is in Halanta, Halanta Pullinga, and in Halanta section, will, these are applicable. I will explain a little bit in Halanta section. The next rule also like that, Mono Thato, this is 8 to 64, this is also applicable in Halantas. Then 8 to 65, that is applicable in Tigantas, and we will study in Tigantas. Then 8 to 66 onwards, the rules are, they are Visarga Samthi rules, which we are studying in next class, Visarga Samthi, from 8 to 62 onwards, Kasalisho Ruhu, and all those rules, all those means, the first, the four rules, Kasalisho Ruhu, Avaya, Shvetava, Purodasta, Aham, Rosuti, 62, 67, 68, 69, these four are related with Visarga Samthi, which we are studying in the next class. Then there are 670 and 71, they are related with Vedic usage. Then 72, 73, 74, 75, some of them are applicable in Tiganta and some of them applicable in Halanta section, so which we will study later. Again, 76, 77, 78. Some of them are again as some of them are applicable in Halanta, some are useful in Tingantas. Even the 80, 81, we'll know that later on. Okay. So then there is Adhikara. Vakyasya Tehe Prutaha Udatta, 82. 6 to 82. So all the from 6 to 82 till the end of this pada. Till the end of this pada, this pruta, kada prutaha bhavati. So pruta sambandha vishayah santi. I mentioned only one rule in Swarasanthi chapter. But there are many rules related to Pruta. All those Pruta related rules discussed in this section. Okay, from 8 to 82 onward till the end of the Pada. And in the last rule of this pada, it is tayor yuva vasi samhitayam. There is a word samhitayam. I explained the meaning of this word samhitayam. It is adhikara. And so, it is applicable till the end of this achyaya. Till the end of this ashtamachyaya. From 8 to 108, this is the last sutra of this pada. So it is applicable in third pada and fourth pada. Samhitayam, this is adhikara. It means all the rules which are mentioned in 8 to Ashtamadhyaya Tritiya pada and Ashtamadhyaya Chaturtha pada, they are applicable in Samhita. When Samhita is intended, then those rules are applicable. If Samhita is not intended, then those rules are not applicable. Therefore, this Samhita adhikara is there. And I also mentioned if Samhita is compulsory in Samasa, Samhita is compulsory if there is Upasarga, etc. So all these rules are applicable depending on Samhita. The rules which are mentioned in 8, Ashtamadhyaya Tritiya Pada and Ashtamadhyaya Chaturtha Pada. Okay? So that is the influence of Samhita Adhikara. Then, 8.3, Ashtamadhyaya Tritiya Pada. So in the beginning there are rules regarding to Rutva, Matubasuru Sambuddha, etc. Those rules we study in Visaka Sandhi, which we are studying in the next class. So there's those up to 12, 8 to 12. They are even 13, 14, 15, 16, okay. Yeah. Yes, till 22, from 8.3.1 to 8.3.22, these rules are related with Visarga Sandhi. Visarga Sandhi Sambadha Niyama Sandhi. So, Etesham Adhyayanam Agrima Visarga Sandhi Adhyayana Kale Kurmaha. And then 8.2.23, 8.2.24, we studied in Visarga Sandhi recently, Monaswara and Astapadanta Siddhali. Then there are three more rules which we are now studying. Hemo, Raji, Samakko, 25, 26, 27. Then there are also the related rules that we did study. Again, 28, Noh Koptukshari, and 29, 30, 31. Those are also related with Halsanti, but we didn't study those rules. Then 32, Namo Hraswalati Namun Nityam, we studied as Namudagama here. Then 32 again is Santiru. Then 34 onwards, from 8.3.34, 8.3.54, those rules are related with Visarga Santi again. So some of them we are studying in Visarga Sandhi section. Okay, 8.3.35 onwards. 8.3.54 Paryantam. Then again there is Adhikara, 8.3.55. You can see Apadantasya Murdhanya. This another Adhikara. So Shatva rules. I think you know, for example, Rameshu. So actually the pratyaya is su, but it gets hakara. The sa will be replaced with sha. That is shatva. So, in many places, sa will be replaced with the sha, and here also in Visarga Sandhi, in Vyanjana, in this Halsandhi, we studied shatva. We studied the two rules related to shatva. All those shatva related rules are explained under this text, under this adhikara, apadantasya murdhanya. So from 8.3.55 till the end of this pada, all these rules, 8.3.55 the arabhya pada samapti paryantam, means 8.3.119, there are many rules. All these rules are related with kshatva only, and we studied only two rules among them. Adesha pratyayo, who I mentioned, and only I mentioned Adesha Pratyayo among these rules, but there are many rules. related to Shatva. Okay, so from 8.355 onwards, all those rules till the end of that pada, they are related with Shatva. Then 8.4, Ashtamadhyayasya Chaturthaha Padaha. So it begins with Natva, Rashabhyam Nonaha Samana Pade is the first rule. So that is Natva. Natva means, for example, Ramena. Actually the pratyaya is Ina, Ramena, but Na becomes Na. Na replaced with Na. There are many rules related to this Natva. Natva, Nakara, Na. Na replaces Na in many places. There are many rules related to this, and there are many exceptions also. So you will find all these exceptions and rules in this Ashtamadhyaya Chaturtha Pada from 8.4.1 to 8.4.39. All these rules are related with Natva. Some of these rules we are studying in Subanta chapter. Okay. Then there are some rules which we studied. It is 8.4.40, Stoshto Nashtuhu. We studied here as Stutva. Then 8.4.41, Stunashtuhu. We studied as Stutva. Then there are three more rules. 8.2.42, Napadanta Toranam. 8.4.43, Toshi. 8.4.44 Shat. Ete Trayaha, these three, Ete Trayaha, Apavadaha. Shtunashtuhu ityasya Apavadaha. These three are exceptions where Shtunashtuhu is not applicable. Napadanta Toranam, Doshi, and Shat. I mentioned a little bit when we were studying the Shtutva, but if you want to know these, know the meaning of the sutra, you can refer to Ashtadhyayi or Kaumudi. So these three are exceptions to Stutva. Napadanta Toranam, Toshi and Shat. 42, 43, 44. Then 45, Eraha Ananasike Ananasikova, this is Ananasika Santhi. Then 8, 4, 46, 47, 48, 49, 50, 51, 52. There are seven rules. Ete dvittam, in some places duplication of letter takes place. The rules related to duplication are given here. So there are seven rules related to duplication. We didn't study this because all these rules are optional. Therefore I didn't mention these rules. But in Kaumudi you will find in Sandhi section. In Swara Sandhi, in Natsandhi itself, all these rules are given in Siddhanta Kaumudi. Then, Chalam Jashi 53, that is needed in Suban, in Tinganta section, that we will study later. Abhyasa Chatta is also like that, it is useful in Tinganta. Then, 8455, this is Karita, which we studied as Tartva here. Then 56, Vavasane. So we studied Vavasane also in Tattva. Here, I can skip this. Yeah. So we studied Tattva, Karita and Vavasane, 8455, 8456. Then Anuprakshetanasikha, I didn't mention. It's optional, therefore I didn't give it. It's not very much used. Then Anuswarasya Parasavarnaha Va Padantasya, that we studied as Parasavarna here. 58 and 59, 8.4, 58, 8.4, 59 we studied. Then 8.4.60 also we studied. Then 8.4.61, I didn't mention Udastastam Bhav Purvasya, that is there in Siddhanta Kaumudi, but I didn't mention here. In 8, 462, Chayoho Natarasyam, we just recently in this class. Then there are three more rules. Sastoti, Haro, Yama, Mimilopaha, Charo, Sari, Savarne, which I didn't mention. We may study in Singanta section, these rules. Then there are three more rules related to Swara. The last rule of Asatya is A, A. So this is an overview of the Tripadi section, which we are studying now. In Halsandhi and Visargasandhi, we are studying this Tripadi section of Asatyai. So is duplicated in some places, under which rule? Yeah, so is duplicated, yeah, that comes under this, as I mentioned, 8446 onwards, there are some rules. They are related to duplication only. 8446, 47, 48, 49, 50, 52. There are 7 rules. They are related with duplication. Okay, and sometimes it is not duplication also. For example, we say, padattam or dattam. We say dattam, it is not duplication. So there are datta and another example is kata. So here you will find one more takara. Datta takara asti atara ekaha atta takara nasti. But it doesn't mean there is a duplication. So here the dat is the original word. Dat and ta. Dat plus ta becomes datta. And here dhatu itself is kru. Kru plus ta becomes krita. So there is no duplication actually. So in some places you will find duplication. In some places originally there is a takara. Therefore you will find two takaras. So duplication rule is not applied in this example. Okay? Okay. Astu. So Halsandhi prakaranam samaptam. So Halsandhi section completed. If you want to study more, then you can refer to Kaumudi or Satyayi. The next class I am teaching Visargasandhi. Astu, tari samapayamah. The prashna asti, ulmarati anasa. Okay, This is not relevant to this session, but let me know if there are savarna to repha. If yes, through which sutra do we identify in samprasaranam rephasya sthane rakaraha ratayim dayoha madhye savaranattam drishtva eva yanasthane bhavati va noche yathasankhyami sutrena samasankhyatve rephasya rakaraha bhavati va. Atra, rikara repayoha madhye, you will find this in yanasandhi also. Iko yanati tyatra rikarasya sthane repha hoti in yanasandhi. And in samprasarana is opposite. Repasya sthane rikara hoti. Rikarasya sthane repha. And ekam yansandhi iti kathyate, ekam samprasarana. This is samprasarana. And this is yansandhi. No, it's opposite, I think. Yeah. Rikarasya sthane repha chet and nasa samprasarana. Atra yatha sankhyam ityasya api anvaya kartum shakyate. And sthane antaratama api, there are two sutras. I think everyone may not understand this but it is okay because there is a question regarding this I am answering. So sthane antartamaha iti ekam sutram asti yatha sankhyam sthane antartamaha iti ekam sutram asti anantaram pashyantu sthane iti arabhate sthane antartamaha iti sutram so antartamaha adeshah bhavati iti arthah antartamaha nama atra yaha sadrishatamaha sah bhavati iti arthah अन्यत्र यथा अत्र भवति विकितं यथा संख्यम अनुदेश समाना इति एकं सूत्रम् अत्र यस्य यथा संख्यम इत्यस्यापि अन्वयः भवति स्थाने अन्तरतमः इत्यस्यापि अन्वयः भवति किमर्थम् इति चेत् ऋकारे रेफांशः अस्ति ऋकारे रेफस्य अंशः अस्ति इति स्वीक्रियते इट्स् नाट् कम्प्लीट्लि दो इट् इस् वावल् अत्र रेफांशः अस्ति अतः रेफांशः अस्ति इति कारणात् ऋकाररेफयोः सावर्ण्यमस्ति तत्र बहूनि कारणानि उक्तानि बहुविधचर्चा अस्ति एतद्विषये विस्तरेण अत्र वक्तुं दृष्टं स्यात् किन्तु यथासङ्ख्यम् अत्र मतभेदः अपि सन्ति किन्तु यथासङ्ख्यम् इत्यस्यापि अन्वयः कर्तुं शक्यते स्थाने अन्तरतमः इत्यस्यापि अन्वयः भवितुमर्हति ऋकाररेफयोः विषये उभयथापि अत्र शक्यते अत्र प्रायः सिद्धान्तकौमुद्यां त्रिकोणमिति इत्यत्र अत्र नागेशस्य मतं भिन्नं सो दे आर् डिफ्रेण्ट् आफ़् डिफ्रेन्स् इन् ओपिनियन् नागेशः सिद्धान्तकौम् अत्र नागेशस्य मतं भिन्नं भवति पुनः दीक्षितानां मते सकारान्तरेण व्याख्यानं क्रियते भाष्ये अपि दिस् आल्सो डिस्कस् भाष्य सो हियर् यु सीम् सिद्धान्तकौमुदी यासि निकोणति अत्र स्थानतः आन्तर्या विकारस्य अकारः इत्युक्तम् इति स्थाने अन्तरतम निकोणति सो स्थानेऽन्तर्गतम् आल्सो प्रतिकूल् अण्ड् यथासङ्ख्यम् इत्यस्यापि अन्वयः भवितुमर्हति इति चर्चा कृता अस्ति तत्र व्याख्यानयति बालमन्दरमैत्रेषु अपि द्रष्टुं शक्नोति तत्रापि चर्चा अस्ति एवञ्च उभयोः अपि अन्वयः भवति स्थानेऽन्तर्गतम् आल्सो प्रतिकूल् और् यथासङ्ख्यम् इस् आल्सो So can you give an example to which one? Example to sthane sthane antaratamaha see just give an example if there is ikara then antaratama is yakara because ichuya sthanam talu ikarasya sthanam the uttarana sthana ikara is talu and uttarana sthana of yakara is also talu atah ikarasya sthane yakara bhavati vakara na bhavati niyantandhi there are four letters yavarala kimartham yakara eva bhavati iti che antaratama varnah अतः कथम् अन्तर्तमः स्थानं समानम् उच्चारणस्थानं समानमस्ति कालु अतः इकारस्य स्थाने यकारः भवति इदं स्थाने अन्तर्तमः इत्यस्य उदाहरणम् यथासङ्ख्यम् इत्यस्य उदाहरणम् एतोयवायावः इत्यस्ति एतोयवायः फोर् यथासङ्ख्यं रेस्पेक्टिव्लि द फस्ट् रिप्लेसस् फस्ट् सेकेण्ड् रिप्लेसस् सेकेण्ड् टैलर् So in Etoyavayavah, there are four letters. A, O, which we studied in Sandhi chapter, Sandhi, A, O, I, O. There are, and again there are four replacements. That is, I, O, I, O. I, O, and I, O. So Yathasankhyam, respectively, the first one replaces first. I replaces A, then O replaces O, I replaces I, and our equation is solved. This is Atahankhya. So we are not considering the Antaratama while doing this. So since the Sthani, there are four Sthani and four Adeshas, just we are applying in the order. But here, sthane, we are taking sthane antaratama. Sthane antaratama asti adesha bhavati chuttam. Hindi ke vanachi. So, ito dushe bahu vitmahan vichara asti. So, vaktaraya atra uktum kastam siya, bahu vicharitam asti. Okay. Astu. Okay. Parvatana Ganji, I think Swami. Panjanagam, Swami Nathanji. अस्तु तर्हि अत्र समापयामः अग्रिमसप्ताहे अस्तु तर्हि पुनर्मिलामः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मणित्रयम्